नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दु भूमे सुखं वर्धितोऽहम् महामंगले पुण्यभूमे त्वदर्थे पतत्येष कायो नमस्ते नमस्ते इमे सादरं त्वानमामो वयम् त्वदीयाय कार्याय बद्धा कटियम् शुभं माशिषं देहि तत्पूर्तये अजय्या च विश्वस्य देहि शक्तिम् सुशीलं जगत्येन नम्रं भवेत् श्रुतं चैव यत्कण्टकाकीर्ण मार्गम् स्वयं स्वीकृतं नः सुखं कार्येत कमुग्रन् परं साधनं नाम वीरव्रतम् तदन्तात् पुरत्वक्षया ध्येयनिष्ठा कृदन्तः प्रजागर् तीव्रामिषम् विजेत्री च नः संहता कार्यशक्तिर् विधायास्य धर्मा